इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्यः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी नवदिल्ल्यां भगवतः बुद्धस्य पवित्र पिपर हवा अवशेषाणां प्रदर्शिनीम् उद्घाटितवान्। असौ उक्तवान् यत् भगवता बुद्धेन दर्शितः मार्गः प्रज्ञा च मानवतायाः कृते अस्ति, तथा च तस्य पवित्राणि अवशेषाणि केवलं कलाकृतयः न अपि तु देशस्य पूज्य धरोहरस्य अभिन्नाः भागाः सन्ति। छत्तीसगढ़स्य सुरक्षाबलेन जातयोः संघर्षयोः 14 माओवादिनः मारिताः, अपरत्र 20 माओवादिनः आत्मसमर्पणं कृतवन्तः हैदराबादे। निर्वाचन आयोगेन पश्चिम बंगालस्य अन्तिम मतदातृ सूच्यां त्रयाणाम् आदिमानव जातीनां नाम समावेशयितुं निर्णयः कृतः। अमेरिकीय आक्रमणानां सूचनानां मध्ये वेनेजुएला देशेन राष्ट्रिय आपत्कालः घोषितः। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् वेनेजुएला देशस्य राष्ट्रपतिः निकोलस मादुरो तस्य पत्न्या सह निगृहीतः देशात् बहिश्च निष्कासितः। अपि च ऋतुविभागेन जनवरी मासस्य 9 पर्यन्तं दिल्ली हरियाणा पंजाब चण्डीगढ़ उत्तरप्रदेशेषु सघन कुज्झटिकायाः रेड अलर्ट इति रक्तवर्णीया सञ्चेतना प्रसारिता। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी भगवतः बुद्धस्य पवित्र पिपरहवा अवशेषाणां प्रदर्शिनीम् उद्घाटितवान्। असौ उक्तवान् यत् भगवता बुद्धेन दर्शितः मार्गः प्रज्ञा च मानवतायाः कृते अस्ति, तथा च तस्य पवित्राणि अवशेषाणि केवलं कलाकृतयः न अपि तु देशस्य पूज्य धरोहरस्य अभिन्नाः भागाः सन्ति। एते अवशेषाः देशस्य सभ्यतायाः अभिन्नः भागः इति सः वर्णितवान्। श्रीमोदिना अद्य नवदिल्लीनगरे रायपिठोड़ा सांस्कृतिक संकुलस्य भगवद्बुद्धस्य पिपरहवा पवित्रावशेषाणां भव्यायाः अन्ताराष्ट्रिय प्रदर्शिन्याः उद्घाटनं कृतम्। प्रकाश और कमल जागृत व्यक्ति के अवशेष इति शीर्षकेण सह प्रदर्शिनी सूच्याः अपि अनावरणं कृतवान्। बहु प्रतीक्षानन्तरं देशस्य धरोहरः पुनः आगतः इति प्रधानमन्त्रिणा उक्तम्। सः अवदत् यत् अद्यारभ्य देशस्य जनाः भगवतः बुद्धस्य एतानि पवित्राणि अवशेषाणि द्रष्टुं शक्नुवन्ति, तेषां दिव्यम् आशीर्वादं च प्राप्स्यन्ति।
भगवान् बुद्ध की हमारी ये साझा विरासत इस बात का भी प्रमाण है कि भारत सिर्फ पॉलिटिक्स डिप्लोमेसी और इकोनॉमी से ही नहीं जुड़ता, बल्कि हमारा जुड़ाव कहीं गहरा है। हम मन और संवेदनाओं से जुड़े हैं, हम आस्था और अध्यात्म से भी कनेक्टेड है। साथियों, भारत केवल भगवान बुद्ध के पावन अवशेषों का संरक्षक नहीं है, बल्कि उनकी परंपरा का जीवंत वाहक भी है।
भारतं न केवलं भगवतः बुद्धस्य पवित्रावशेषाणां रक्षकः अपि तु तस्याः शाश्वतपरम्परायाः जीवितं वाहकम् अपि इति श्रीमोदिना बोधितम्। बौद्ध धरोहरस्य विषये प्रधानमन्त्रिणा उक्तं यत् भारतेन विश्वे बौद्ध रिक्तस्थलानां विकासे योगदानं दातुं निरन्तरं प्रयत्नाः कृताः। बौद्धस्थलानाम् आधुनिकीकरणं क्रियते, तीर्थयात्रिणां कृते नूतनाः सुविधाश्च निर्मीयन्ते इति सः अवदत्। प्रधानमन्त्रिणा उक्तं यत् भगवतः बुद्धस्य शिक्षा मूलतः पालीभाषायां लिखिता, तस्य सर्वकारस्य प्रयासः च पालीभाषायाः व्यापकदर्शकानां कृते पालीभाषा सुलभा भवेत् इति वर्तते। तेन उक्तं यत् पालीभाषा शास्त्रीयभाषायाः उपाधिना अलंकृता, 98-18 वर्षे आविष्कृताः पिपरः वा अवशेषाः प्रारम्भिक बौद्धधर्मस्य पुरातत्वस्य अध्ययने महत्वपूर्णं स्थानं धारयन्ति। ते भगवद्बुद्धेन सह प्रत्यक्षतया सम्बद्धेषु प्राचीनतमेषु ऐतिहासिकदृष्ट्या च महत्वपूर्णेषु अवशेषेषु अन्यतमाः सन्ति। पुरातत्वसाक्ष्यं पिपरहवा स्थलं प्राचीनकपिलवस्तुना सः सम्बद्धं करोति। यत्र भगवान् बुद्धः तपस्विनः कार्यं कर्तुं पूर्वं प्रारम्भिकजीवनं यापयति स्म, विपरः वा अवशेषाः शताधिककालानन्तरं भारतं प्रति प्रत्यागताः सन्ति। विपरः वा अवशेषाणां भागाः नवदिल्लीनगरस्य राष्ट्रियसङ्ग्रहालये, कोलकातानगरस्य भारतीयसङ्ग्रहालये च संरक्षिताः सन्ति संरक्षिताः आसन्। केन्द्रीय संस्कृति मन्त्री गजेन्द्र सिंह शेखावतः अवदत् यत् एषः ऐतिहासिकः अवसरः 27,100 वर्षेभ्यः परं भगवतः बुद्धस्य पिपरः वा रत्नावशेषाणां पुनरागमनं भवति।
भगवान बुद्ध के पवित्र रत्न भगवान बुद्ध की उस जीवंत परंपरा से जुड़े हैं, जो जीवंत परंपरा करुणा, विवेक, विवेक पूर्ण ज्ञान और संतुलन को भारतीय चेतना में सुस्थापित करती है। भगवान बुद्ध का दर्शन इस भारत की अनूठी आत्मा का दर्शन है। भारत से निकले भगवान बुद्ध के इस बुद्ध धर्म ने न केवल एशिया को अपितु विश्व के लिए मानवता के मंत्र के स्वरूप काम किया है।
अद्य छत्तीसगढ़ राज्यस्य बस्तर संभागे सुरक्षा बलेन सह जातयोः द्वयोः पृथक पृथक संघर्षयोः 14 माओवादिनः मारिताः। 26,000 आरम्भे छत्तीसगढ़ राज्ये नक्सल विरोधी क्षेत्रे सुरक्षाबलेन महती सफलता समर्जिता। एकः संघर्षः सुकमा मण्डलस्य कोण्टा क्षेत्रे अभवत्, यस्मिन् 12 माओवादिनः मारिताः। द्वितीयं च बिजापुर मण्डलस्य बसाकुडा क्षेत्रे अभवत्, यत्र द्वौ माओवादिनौ निष्प्रभावितौ अभवताम्। सुरक्षाबलेन संघर्षस्थलाभ्यां सर्वेषां मृतानां माओवादिनां शवाः प्राप्ताः। अपरत्र 20 माओवादिनः आत्मसमर्पणं कृतवन्तः हैदराबादे। निर्वाचन आयोगेन पश्चिम बंगालस्य अन्तिम मतदात्री सूच्यां 3 आदिमानव जातीनां नाम समावेशयितुं निर्णयः कृतः। एतेषां 3 समुदायानां मतदातॄणां कृते अस्य कृते स्वीयाभिलेखानां प्रदानस्य आवश्यकता न भविष्यति। पश्चिम बंगालस्य निर्वाचनाधिकारिणां सूत्रानुसारेण एताः जनजातयः बिरहोर, टोटो, साबर इत्येताः सन्ति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन ए आई आर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अमेरिकीय आक्रमणानां सूचनानां मध्ये वेनेजुएला देशेन राष्ट्रिय आपत्कालः घोषितः। राजधान्यां कराकस नगरे अनेक विस्फोटानाम् अनन्तरं वेनेजुएला प्रशासनम् अमेरिका देशम् अनेकेषु राज्येषु नागरिकाणां सैन्य प्रतिष्ठानानाम् उपरि आक्रमणस्य आरोपं कृतवत्। एतत् अतिरिच्य अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् वेनेजुएला देशस्य राष्ट्रपतिः निकोलस मादुरो तस्य पत्न्या सह निगृहीतः देशात् बहिः निष्कासितः। अद्य प्रातःकाले बृहद् आक्रमणस्य अनन्तरम् एतद् अभवत्। दिल्ली आरक्षिबलस्य इंदिरा गांधी अंतर्राष्ट्रीय विमानस्थानकस्य एकेन दलेन 25,000 वर्षे वीजा, पासपोर्ट इति कपट प्रकरणेषु संलग्नानां जनानां उपरि कार्याचरणेन महत्वपूर्णोपलब्धिः प्राप्ता। दिल्ली आईजीआई विमानस्थानकस्य उप आरक्षक आयुक्तः विचित्र वीरः अवदत् यत् गतवर्षे देशस्य विभिन्नेषु भागेषु यात्रा अभिकर्तृभिः अवैध प्रवासाय सहायकैश्च सह प्रायः 30+100 जनाः निगडिताः सन्ति। गृहमन्त्री अमितशाहः अद्य अण्डमान निकोबार द्वीप समूहे गृहमन्त्रालयस्य संसदीय परामर्श समितेः सभायाम् अध्यक्षतां कृतवान्। ऋतुविभागेन जनवरी मासस्य 9 पर्यन्तं दिल्ली, हरियाणा, पंजाब, चण्डीगढ़, उत्तरप्रदेशेषु सघन कुच्छटिकायाः रेड अलर्ट अर्थात् रक्तवर्णीया संचेतना प्रसारिता। हिमाचलप्रदेशे अपि शीततरंगस्य, उत्तराखण्डे च हिमपातस्य संभावना विद्यते। सोमवासरपर्यन्तं बिहारे शैत्यप्रकोपः स्थास्यति। इति वार्ताः।